विद्याधर महोदय कृपया प्रारम्भं करोतु। विद्याधर महोदय अस्ति
वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा।
अधुना सम्यक् वा ध्वनिः?
आं भगिनि।
आम् आम् आं भगिनि।
कोऽपि स्मरणं कर्तुं शक्यते वा पूर्वगतसप्ताहस्य पाठान्? सन्दीप् महोदय कर्तुम् इच्छति वा?
किं वदामि,
गतसप्ताहे वयं द्वितीयाविभक्ति
द्वितीयाविभक्तेः किं वदामि तत्र द्वितीयाविभक्ते
किञ्चित् नियमानि द्रष्टव्यं भवति। चिन्ता नास्ति, अहमेव द्वितीयाविभक्तिविषये वयं चर्चितवन्तः गतसप्ताहे। अभवत् द्वितीयाविभक्ति, एकवारम् अहं नियमानि कानि इति वदामि। प्रथमम् आसीत् कर्तरिप्रयोगे कर्मणः द्वितीयाविभक्ति। उदाहरणार्थं वानरः वृक्षम् आरोहति, वृक्षम् इति द्वितीयाविभक्ति स्वीकरोतु। अनन्तरम् अहम् एकम् उक्तवती पूर्वं सकर्म अकर्मकधातुः इति, कोऽपि जानाति वा कः सकर्मकः इत्युक्ते कः अकर्मकः इत्युक्ते कः इति? विद्याधर महोदय अथवा चन्द्रा भगिनी, सन्दीप् महोदय, कोऽपि जानाति वा?
सकर्मकः इत्युक्ते यत्र पदानाम् उपयुज्य वाक्यः, अकर्मक इत्युक्ते वाक्यस्य कर्मणां
सम्यक् अस्ति, सम्यक् अपि जानाति चेत् कृपया उत्पादयतु। धातुस् आर् डिवैडेड् इन् टु टू टैप्स्, वन् इस् सकर्मक, अनदर् वन् इस् अकर्मक। सकर्मक धातु आर् दोस् वर्ब् that answers the question what, okay, there are certain verbs where the question for what cannot be answered. For example, stha is a dhatu which means tishtati, stand or keep. When you ask stand what, you will not get any answer for that. So that becomes akarmaka dhatu. For example, the boy stands, this is a kartari sentence, balakah tishtati. Now if you try to convert the same into passive voice, you will have to say it is being stood by the boy. Though it is a very awkward sentence which is not grammatically correct, it is actually perfect in Sanskritam. So, if you try to change the kartari, which is balakaha tishtati to karmani prayoga, it will become balakena sthiyate. Right? So, this kind of vakya, where you don't get an answer for the question of what, or the karmani with an akarmaka dhatu is known as bhave prayoga. Because the feeling or the idea of the sentence is primary. Neither the subject nor the object. If you take kartari, subject is important. Balakaha ishtati. If you take karmani prayoga, the object will become, dvitiya vibhakti, for example, the object will be the most important thing in that. But with bhave prayoga, neither of those become important, but the cause or the idea of the sentence is what is going to be really important for you to convey an idea. Is the concept clear to everybody, or you want me to repeat it? Because bhave prayoga is also important for your tritiya vibhakti. So when you understand this, then dvitiya and tritiya will fall into place most of the times. I will, however, repeat it once again. So, voices are classified into three types: active, passive, and impersonal. Active voice in Sanskritam is known as kartari. Passive voice is known as karmani. And impersonal is known as bhave prayoga. You can put three columns so that you can understand it better. So, kartari is kartu, locative singular of kartu. Passive will be, which is karmani, will be the karman's locative singular, while impersonal will be the bhava. Bhava is important in impersonal. So what I'm trying to convey with the kartu, karman is that subject is predominant with your active voice. So if you take kartari, the subject becomes the predominant thing. If you consider karmani, object will be the predominant. Predominance will be for the object. In impersonal, the idea itself, because the verb is intransitive, verb will be in passive form. So the idea will become the important stuff. For example, another example, balakaha pustakam pathati. So here balakaha pustakam patati is a kartari form. The passive form will be balakena pustakam pathyate. So here the predominance goes for the object, pustakam pathyate. And in impersonal, balakaha tishtati. Simple. He stands. You cannot question stands what or anything of that. So, this is what is active, passive and impersonal in Sanskritam, which is Kartari Karmani and Bhave Prayoga. This is again a little, it might confuse a little bit to you, but then take some time to understand it so that you can feel comfortable. So, Sakarmaka Dhatunam Prayoge, you will have to use Dvitiya Vibhakti. Where Tva Lyap. In before Tva and Lyap, we saw examples, but again I'll just say some other examples. Balaha Patram Patitva Kridati. Here Patram is in Dvitiya Vibhakti because Tva Pratyaya is there, Patitva. So before that you are going to use Dvitiya Vibhakti. Or Balena Patram Patitva Kridyate. Here the tense changes again, but then the idea is the dhatu is Sakarma. If you ask a question like what, for example, balaha patram patitva kridati, patitva kridati, what patitva, patram patitva. So you are getting an answer. So that will be in Dvitiya Vibhakti. And the other one is lyap. Balakaha tandulam aniya pachati. Kim aniya pachati, tandulam aniya pachati. So you are getting an answer. And apart from that we also saw tuman and shatra pratyaya tena upanyasam shrotum gamyate so here shrotum is tuman pratyaya kim shrotum upanyasam shrotum to hear the upanyasa so you are getting an answer for the kriya and so is a shatra pratyaya एषः चित्रं पश्यन् गच्छति इट् ईस् द पिक्चर् सो किं पश्यन् टु सी वाट् चित्रं मूवी सो यु आर् गेटिङ्ग् अन् आन्सर् अगेन् सो सकर्मकधातूनां प्रयोगे त्वान्तं ल्यबन्तं तुमुन् शत्रान्तं च पूर्वं द्वितीया विभक्ति भवति फस्ट् रूल् वा कर्तरिप्रयोगे karma will be dvitiya second is that sakarma dhatu having a sakarma ka dhatu which means if you ask a question like what you will definitely get an answer in that before svantam yabantam tumunantam and shatrantam pratyaya dvitiya vibhakti will be used third rule is that paritah shabdat purvam dvitiya vibhakti bhavati we also saw this there was a lot of examples for paritah devalayasya paritah prakarah mama griham paritah udyanam asti there was an example right so paritah before paritah you will have to use vidya vibhakti and vina prayoge vidya vibhakti vayum vina kopi na jivati without air nobody can live vayum vina so vina is there for that you are getting dvitiya vibhakti ubhayatah prayoge api dvitiya vibhakti margam ubhayatah vrikshaah santi so here margam ubhayatah before ubhayatah you have margam which also takes dvitiya vibhakti and dvikarmaka dhatunam prayoge karmanoh dvitiya vibhakti kartari prayoge of course guruh शिष्यं प्रश्नं पृच्छति सो हियर् यु हव् गट् टु धातुस् लैक् वन् इस् प्रश्नम् अनुपृच्छति बोध क्रियास् सो इन् दट् सेन्स् यु विल् हव् द्वितीया विभक्ति बट् आल्सो द शिष्यं प्रश्नं बोत् विल् बी इन् द्वितीया सो दिस् इस् आल् अबौट् द्वितीया विभक्ति आल् द रूल्स् हव् बीन् लिस्टेड् औट् देर् आर् मल्टिपल् रूल्स् अपार्ट् फ्रम् दट् फार् एक्साम्पल् देर् आर् सम् अव्ययास् वेर् यु हव् टु यूस् द्वितीया ओन्ली and there are some pada and dhatu but I am not covering that because it is not given in the book so I am just leaving it probably sometime later we will discuss all those any questions in dvitiya vibhakti if not we will move on to tritiya vibhakti are you able to understand can any of you confirm me so that I can do
भगिनी भाववाच्य वाक्यं देर् इट् इस् आल् अकर्मक बिकास् देर् इस् नो आन्सर् फार् किं पार्ट् रैट् सः हसति मीन्स् सपोस् दट् इस् द सेण्टेन्स् ही स्मैल् स्मैल् इस् अ फीलिङ्ग् सो नौ ऐ केनाट् से ही he what smiles or something like that right so that is why saha kim hasati is not a right usage so that becomes bhava vachya so that kim will not be there and the answer for that which will be karma pad is that correct
yeah plus you have to also understand now saha hasati is what you said in yeah. English you cannot make it passive
yes
but then in Sanskrit you can tena hasyate
correct right
so that is bhave prayog
yeah
and okay we added something because the here tena becomes kriya which means there is also one of the rules for kriya
oh
any other question
Bhagini, tena hasyate is bhave prayoga or karmani prayoga?
It is karmani bhave.
ओके सो इट्स कर्मणि भावे ओके
थैंक यू इट इज इम्पर्सनल बेसिकली पैसिव इम्पर्सनल पैसिव इज कर्मणि सो भावे बिकम्स पैसिव इम्पर्सनल
ओके ओके थैंक यू
एनी अदर क्वेश्चन ओके सो मेक श्योर यू आर क्लियर विद द रूल्स I will try to type it out and make it as a presentation for you in the next class so that you can understand it better because I know it is hard to note down everything. So I'll try to come up with a presentation for the next class. So we will go to Tritiya Vibhakti and after all the Vibhaktis we will get into Pratyayas as a separate topic for one or two classes so that you will get an idea about what Pratyayas are. So now we will be seeing Tritiya Vibhakti. Tritiya Vibhakti is the third case. Okay. So before going to that, we will try to recollect some of the concepts. Okay, that we already saw. You all know it already, but it would be good if you understand it once more. The relationship between a noun and a verb is called karaka. Okay, noun and verb has to be there. Only then you can call it a karaka. Therefore, any relationship between words that are not connected to a verb cannot be known as karaka. Only a noun and verbal connection is called karaka. This was the first thing that is always to be remembered. Second thing, there are six karakas. Kartrikaraka, karmakaraka, karanakaraka, sampradana, apadana, adhikarana. So all the vibhaktis all have the vibhaktis except the sixth one we will just leave it for now so because the sixth connects to the another noun in a sentence so I said only if you can connect a noun and a verb you can call it a karaka if the noun is connected to a noun it cannot be called as a karaka so it is not categorized as karaka itself for example शिष्यस्य पुत्रः गणेशः ओके सॉरी शिवस्य पुत्रः गणेशः और एनीथिंग यू कैन टेक शिष्यस्य पुत्रः गणेशः नो हियर शिवस्य कनेक्ट्स टू पुत्र बोथ ऑफ देम आर नाउन सो हियर देयर इज नो कारक सो अधिकरणा इज लेफ्ट आउट हियर देयर आर सम इंडिक्लाइनेबल व्हिच आर कॉल्ड एज अव्ययास which are used in vibhaktis visa paritah so there you are able to use vibhakti we already saw we were using dvitiya vibhakti so abda command by avyayas as well they are known as upapada vibhakti so these are some of the things that you should always remember not getting to dvitiya vibhakti Someone is unmuted, I guess. Any questions? Natarajan Mahari, you wanted to say something? You have unmuted yourself?
No, nothing. Sorry. Huh. Just not joined.
No problem. Please be in mute so that there will not be any dhvani. So, Tritiya Vibhakti rules first. Karane Tritiya Vibhakti hi bhavati. Yes. Bhave prayoghe. कर्मणि प्रयोगे च कर्तुः तृतीया विभक्ति भवति फर्स्ट वन इज करणे सेकंड वन इज भावे च कर्मणि प्रयोगे सो इन भावे एंड कर्मणि यू विल बी यूजिंग तृतीया विभक्ति व्हिच वन विल बी तृतीया कर्ता विल बी तृतीया ओके वी विल सी अ लॉट ऑफ एग्जांपल्स फॉर दैट सह प्रयोगे तृतीया विभक्ति फॉर एग्जांपल अहम् मित्रेण सह खादामि I eat with my friend mitrena saha khadami so here along with my mitra so that becomes tritiya saha prayoge sadrishah prayoge tritiya vibhakti the fourth rule is sadrishah prayoge sadrisham is similar to that mukham chandrena sadrisham asti the face is like chandra chandrena sadrisham so whenever you use sadrisham then the prayoga will be chandrena or tritiya vibhakti karana vachakasya tritiya विद्यया ज्ञानं वर्धते. विद्यया ज्ञानं वर्धते. सो हियर् द वाचका इस् करण. अलं योगे तृतीया. अलं श्रमेण. This is the example, popular example, alam shramena. We will see a lot of examples. We will also analyze what is everything there. So these are all the rules for tritiya vibhakti that you should always remember. Okay, now we will go to page number 18. I will start with Vidyadharmadhyaya. Vidyadharmadhyaya, can you read tritiya and the first topic and then the example.
Kriyayam yat sahasya tritiya vibhakti udaharanam saha dandena shunakam tadayati. So what it says is in the sentence and for the kriya what is being used, that is used as tritiya vibhakti. Saha dandena shunakam tadayati means he is hitting the dog using so stick. Here is danda, so that comes as the tritiya vibhakti. So dandena. अभ्यासः एतैः साधनैः भवन् किं कर्तुं शक्नुवन्ति लिखतु. उदाहरणं करवस्त्रम्. So basically using these instruments what you can is what we have to write. So karavastram achieve. Aham karavastre mukham marjayami. I will use the hand. So
karavastrena. Can you also
tritiya vibhakti?
Yes,
Kartha abhyasa pratham tari aham kartari. Give me 1 minute. Aham kriya kagadam kartayami. Not sure if that is अहं कर्तर्या कागदं कर्तयामि यूसिङ्ग् दम् कटिङ्ग् दै कट् पेपर् यूसिङ्ग् सिज़र्.
चन्द्रा भगिनी अग्रिमं करोतु कृपया.
आं भगिनि. कुञ्चिका रिक्तस्थलमस्ति. अहं तालम् उद्घाटयामि. कुञ्चिकया अहं तालम् उद्घाटयामि. कुञ्चिका स्त्रीलिङ्गशब्दः अस्ति. तस्य तृतीया विभक्ति कुञ्चिकया. ऐ ओपन् द लाक् वित् द की. कुञ्चिका इस् की. सम्यक् न श्रूयते भगिनि. आकारान्त स्त्रीलिङ्ग कुञ्चिका शब्दः. कुञ्चिका कुञ्चिके कुञ्चिकाः. कुञ्चिकां कुञ्चिके कुञ्चिकाः. कुञ्चिकया कुञ्चिकाभ्यां कुञ्चिकाभिः.
धन्यवादः
भगिनि.
So it will be really great if all of you practice like this so that you won't obstruct. So Uma Bhagini Agrimam Dvayam Karotu Kripaya. 3 and 4. You can do both.
आं भगिनि उट्टङ्कनयन्त्रम् अहम् उट्टङ्कनं करोमि उट्टङ्कनयन्त्रेण अहम् उट्टङ्कनं करोमि
सम्यक्
वित् टैप्रैटर् I type. सीवनयन्त्रम् अहं सीवनं करोमि सीवनयन्त्रेण अहं सीवनं करोमि ऐ स्यू वित् स्यूयिङ्ग् मशिन् ऐ स्यू वित् स्यूयिङ्ग् मशिन्
धन्यवादः सन्दीप् महोदय अग्रिमं द्वयं करोतु कृपया
आं महोदय विमानं अहं सञ्चारं करोमि विमानं नपुसकलिङ्ग् शब्दः अस्ति तस्य तृतीयाविभक्ति विमानेन इति भवति विमानेन अहं सञ्चारं करोमि अनन्तरं सूक्ष्मदर्शकमपि नपुसकलिङ्ग् शब्दः अस्ति तृतीयाविभक्ति सूक्ष्मदर्शकेन अहं सूक्ष्मवस्तूनि पश्यामि इति भवति
रामेश्वरी भगिनी अग्रिमं द्वयं कृपया
कङ्कतिका रिक्तं स्थलमस्ति अहं केशप्रसाधनं करोमि कङ्कतिकया अहं केशप्रसाधनं करोमि कङ्कतिका आकारान्त श्रीलिङ्गं श्रीलिङ्गः शब्दः सीता इव तृतीया विभक्ति कङ्कतिकया लोकयानं रिक्तं स्थलमस्ति अहं प्रयाणं करोमि लोकयानेन अहं प्रयाणं करोमि लोकयानम् अकारान्त नपुंसकलिङ्गशब्दं फलम् इव तृतीया विभक्ति लोकयानेन
सम्यक्
धन्यवादः भगिनि
धन्यवादः रूपा भगिनी अग्रिमं द्वयं करोतु कृपया
आं भगिनि दूरवाणी रिक्तस्थलम् अहं सम्भाषणं करोमि दूरवाणी ईकारान्त स्त्रीलिङ्गशब्द तस्य तृतीयविभक्ति दूरवाण्यौ
किं किं
दूरवाण्यौ नद्यौ इति अस्ति वा अस्ति वा
दूरवाण्यौ तृतीयाविभक्ति वा एकवारं शब्दं वदतु दूरवाणी प्रथमा द्वितीया तृतीया सर्वं वदतु
दूरवाणी दूरवाण्यौ दूरवाण्यः दूरवाणीं दूरवाण्यौ दूरवाणीः
सम्यक्
ओ दूरवाण्या अहं सम्भाषणं करोमि
उत्तमं दूरवाण्या सम्भाषणं
द्विचक्रिका तत् आकारान्त स्त्रीलिङ्गशब्दम् अहं विद्यालयं गच्छामि द्विचक्रिकया अहं विद्यालयं गच्छामि
एकवारं ध्वनिः
भगिनी
सम्यक् न श्रूयते भगिनी, भवत्याः ध्वनिः न्यूनम् अस्ति.
एकनिमिषम्. श्रूयते वा? हलो, श्रूयते वा?
वयं शृणुमः भगिनी.
सम्यक् अस्ति भगिनि.
पुनरावर्तनं करोमि वा द्विचक्रिका?
आम्, एकवारं कृपया.
द्विचक्रिका आकारान्त स्त्रीलिङ्गशब्द लता एव. द्विचक्रिकया अहं विद्यालयं गच्छामि.
उत्तमम्. नटराजन् महोदय अग्रिमं द्वयं करोतु.
कूर्चः, सोरि, कूर्चः अहं,
न एकनिमिषं, पूर्वमेकमस्ति लेखनी इति एकमस्ति खलु,
लेखनी अहम् अक्षराणि लिखामि. ईकारन्द श्रीलिङ्ग शब्द. लेखन्या अहम् अक्षराणि लिखामि.
उत्तमं.
नेक्स्ट् वन्, कूर्चः अहं चित्राणि लिखामि. कूर्चैः अहं,
एकनिमिषं, कूर्चः किं किम् अन्तं, रामः इव खलु?
जानामि.
ड्रेस् प्रकार
नटराजन् महोदय अधुना भवान् पठतु.
ऐ थाट् इस् कूर्चैः,
न सम्यक् न अस्ति. रामः इति एकं पदमस्ति खलु, रामशब्दं वदतु एकवारम्.
रामेण,
कूर्चः
कूर्चेन, कूर्चेन
अवगच्छति वा?
कूर्चेन अहं चित्रं लिखामि.
लिखामि इति अस्ति. सम्यक् पठतु महोदय. पुस्तके चित्राणि इति अस्ति, चित्रमिति नास्ति. यत् पुस्तके अस्ति तदेव पठतु. भवान् अवगतवान् किं कूर्चेण इति एव? सम्यक्.
कूर्चेन, ओके, थैंक यू.
डिड यू अंडरस्टैंड व्हाट मिस्टेक यू वर डूइंग?
या, आई थॉट इट्स कूर्चेन. Kurchah, the Ra is going to make a difference. That's why I was trying to put a different way. I think Rama is acting here. So it is Ramena, Kena.
Shabda Manjari, make use of Shabda Manjari Mahodaya. Pratidinam Patatu. Daily take one Shabda and try to recite it.
Okay. Thank you, Bhaini.
Vidyadhar Mahodaya, if your background is clear, you can read it. Otherwise, I'll ask someone else to continue.
Is it clear now?
Yeah, now it's clear.
Okay. Syutaha, aham vastuni anayami. So, syutena aham vastuni anayami.
Yes. Agrimam apekharu. अग्रिमद्वयमपि करोतु, समापयतु एतत्.
तुला, अहं वस्तूनि तोलयामि. तुलया, अहं वस्तूनि तोलयामि. दन्तकूर्चः, अहं दन्तधावनं करोमि. दन्तकूर्चेन अहं दन्तधावनं करोमि.
धन्यवादः. कोऽपि प्रश्नमस्ति वा अत्र? एनि आफ् यू हव् गाट् एनी डौट्स् हियर्? इफ् नाट् वी विल् गो टु द नेक्स्ट् वन्. चन्द्रा भगिनी अग्रिमं पठतु कृपया.
आं भगिनि, द्वितीयबिन्दु, भावसूचकानां शब्दानाम् अपि तृतीया भवति. उदाहरणं, बालकः सन्तोषेण क्रीडितुं गतवान्. भावसूचकानां, दोस् वर्ड्स् विच् इण्डिकेट् फीलिङ्ग्स्, ते अपि तृतीया विभक्ति भवति. अभ्यासः, वाक्यस्य अन्ते दत्तस्य शब्दस्य तृतीया विभक्त्यन्तरूपेण रिक्तस्थानानि पूरयत. यथा, सः रिक्तस्थलमस्ति, कृषिं करोति स्म. परिश्रमः, अतः परिश्रमः एतत् शब्दस्य तृतीया विभक्ति अत्र आवश्यकं. तद्भवति, सः परिश्रमेण कृषिं करोति स्म. अग्रिमम् अस्ति, माता रिक्तस्थलमस्ति, बालकं ताडितवती. अत्र आवरणे अस्ति क्रोधः. क्रोधः पुल्लिङ्गशब्दः भवति, तस्य तृतीया विभक्ति क्रोधेन. अतः माता क्रोधेन बालकं ताडितवती. द मदर् हिट् द बाय् औट् आफ् एङ्गर्. धन्यवादः.
उमा भगिनी अग्रिमं द्वयं करोतु कृपया.
आं भगिनि, निर्धनः धनं सम्पादयति. आवरणे कष्टं शब्दः अस्ति. निर्धनः कष्टेन धनं सम्पादयति. कष्ट व्याघ्रं दृष्ट्वा पान्तः कम्पते स्म. आवरणे भयं शब्दः अस्ति. व्याघ्रं दृष्ट्वा पान्तः भयेन कम्पते स्म. धन्यवादः.
आम् महोदय, चतुर्थं वाक्यं, मरणवार्तां श्रुत्वा सा रोदनं कृतवती. आवरणे शब्दः अस्ति दुःखं. दुःखम् इति नपुंसकलिङ्गशब्दः. मरणवार्तां श्रुत्वा सा दुःखेन रोदनं कृतवती. भवान् यत् करोति तत् करोतु. आवरणे आनन्दः शब्दः अस्ति. आनन्दः पुल्लिङ्गशब्दः अस्ति. अतः भवान् यत् करोति तत् आनन्देन करोतु इति.
धन्यवादः.
रिक्तस्थानं, किमपि कार्यं मा करोतु. आवरणे त्वरा शब्दः अस्ति. त्वरा आकारान्तस्त्रीलिङ्गशब्दः. तृतीया विभक्ति त्वरया त्वरया किमपि कार्यं मा करोतु सः अधिकारी सदा अपि रिक्तस्थानं व्यवहरति आवरणे रुक्षता रुक्षता आकारान्त रुक्षता आकारान्त श्रीलिङ्गशब्दः तृतीया विभक्ति रुक्षतया सः अधिकारी सदा अपि रुक्षतया व्यवहरति
भगिनी त्वरा इत्युक्ते क्षम्यतां भगिनि त्वरा इत्युक्ते हरि एण्ड् रुक्षता इस् रूड् इस् इट्
or if you want to say roughly there were these number of people then also you can use rukshata in that sense also
dhanyawad
natarajan mohdi agrimam dvayam karo
rukshataya samane ho rakshaka
mohdi there is a visarga please read with visarga don't leave it you are always leaving those
मोः रक्षः रक्षकाः रक्षकाः भवन्तः भवन्तं रक्षन्तु आरक्ष्मि आरक्ष्मि गदरूप गदरूप गदरूपता
Natarajan Mahodaya, when I say a no, please make a stop. Just listen to me. You are not pronouncing the letters properly. Take your time and do it properly. I want you to read the one in the brackets properly. Can you do it again?
Okay. In the bracket it is Dagaru.
Is it Rukta?
Jaga Rukta, Jaga Rukta.
No, I say it is no. It is Ka, not Rukata,
Rukata, Rukata, Jaga Rukata.
It is Rukata, Jaga Rukata.
Jaga Rukata.
Now finish it off.
Bho.
It is Boho, there is a Visarga.
Visarga, Boho, Boho. रक्षकाः भवन्तः जागरूकताय जागरूकताय
One before is Rukshata, right? She said Rukshataya. Then what this should be? It is very similar. There is no
Jaga Rukaya.
I said no. You also, you said the same thing earlier. There is a Tha in between. Why are you leaving that?
Rukha. जागरूकतया जागरूकतया भवन्तं रक्षन्तु
भवनं रक्षन्तु इट् इस् नाट् भवन्तं
भवनं रक्षन्तु भवनं रक्षन्तु भोः रक्षकाः भवन्तः जागरूकता भवनं रक्षन्तु
यु आर् मिस्प्रनौन्सिङ्ग् एव्री सिङ्गल् लेटर् इट् इस् जागरूकतया यु जस्ट् नौ सेड् इट् प्रापर्ली ऐ डोण्ट् नो वै आर् यु दिस् कन्फ्यूस्ड् वेन् यु ट्रै टु रीड् इट्
जागरूकतया भवनं रुच्छन्तु सारी
अग्रिमम्
ओके नेक्स्ट् वन् मया किमपि वक्तव्यं नास्ति आवरणेन विशेषता मया विशेषता किमपि विशेषता
नो इट् इस् रोङ्ग्
विशेषता
What did you say?
Visheshatya.
Why are you saying tya?
विशेषतया मया विशेषतया किमपि
Can someone please correct him?
Can I tell him? महोदय प्रीवियस्लि यु सेड् जागरूकतया तत्रापि आकारान्तस्त्रीलिङ्गः शब्दः अस्ति तदेव अत्रापि भवति तत्र जागरूकतया इति भवति अत्र विशेषतया तत्ता अपि वक्तव्यं तया इति पूर्णं भवति
मया विशेषतया किमपि नास्ति
वक्तव्यं विद्याधर महोदय अग्रिमं करोतु अग्रिमं द्वयं करोतु
रमरमेशयोः विवाहः रिक्तस्थलं प्रवृत्तः आवरणे वैभवम् इति अस्ति रमरमेशयोः वैभवेन प्रवृत्तः actually it should be vaibhavena actually not vaibhavena
anyhow you do it I'm sure that you'll be doing it correctly so not a problem you can continue do the next one
कष्टं यावत् वा भवतु भवान् रिक्तस्थलं कार्यं करोतु आवरणे सहना इति अस्ति कष्टं यावत् वा भवतु भवान् सहनेन कार्यं सहनया कार्यं करोतु
अवगच्छति खलु सहनया इति
भगिनी सम्यक् न श्रूयते भगिनी
ऐ एबल् टु अण्डर्स्टाण्ड् वट् द मीनिङ्ग् आफ्
सहना इस् पेशन्स्
सम्यक् टालर्
सो इट् सेस् वाट् एवर् इस् डिफिकल्टि प्लीस् डू अवर् पेशन्स्
चन्द्रा भगिनी अग्रिमं द्वयं करोतु धन्यवादः महोदय
अग्रिमम् अस्ति एतां वार्तां श्रुत्वा सा रिक्तस्थलमस्ति निःश्वसितवती एतां वार्तां श्रुत्वा सा आवरणे तृप्तिः इति अस्ति तत् शब्दः किञ्चित् एतत् तृप्तिः मतिशब्दवत् अस्ति वा हरिशब्दवत् अस्ति वा तत् सन्देहमस्ति
तृप्तिः
तृप्त्या तथा स्त्रीलिङ्गशब्द इति चिन्तयामि एतां वार्तां श्रुत्वा सा तृप्त्या निश्वसितवती अग्रिममस्ति सै अध्यापकस्य तर्जनं श्रुत्वा सा रिक्तस्थलमस्ति शिरः अवनमय्य स्थितवती अवनमय्य स्थितवती आवरणे अस्ति लज्जा आकारान्तस्त्रीलिङ्गशब्दः अस्ति तस्य तृतीया विभक्ति भवति लज्जया अतः अध्यापकस्य तर्जनं श्रुत्वा सा लज्जया शिरः अवनमय्य स्थितवती
उमा भगिनी अग्रिमं करोतु अग्रिमं द्वयं करोतु
आं भगिनि कः सः इति गोविन्दः रामं पृष्टवान् आवरणे कुतूहलं कः सः इति गोविन्दः कुतूहलेन रामं पृष्टवान्
अग्रिमम्
पराजयं प्राप्य सः प्रतिगतवान् आवरणे निराशता अस्ति पराजयं प्राप्य सः निराशेन प्रतिगतवान् निराशतया सारि पराजयं प्राप्य सः निराशतया प्रतिगतवान्
धन्यवादः सन्दीप् महोदय तृतीयम् अभ्यासमस्ति प्रारम्भम्
आम् अभ्यासं तृतीयं तृतीय सः इति शब्दः यत्र भवति तत्र तृतीया विभक्तिः भवति उदाहरणार्थं पिता पुत्रेण सह नगरं गच्छति अभ्यास वाक्यरचनार्थं सहायकानां त्रयाणां शब्दानाम् आधारेण वाक्यानि रचयत यथा आवरणे अस्ति कोष्ठके अस्ति लक्ष्मणः रामः वनं लक्ष्मणः रामेण सह वनं गतवान्
रविः
मित्रं नगरं रविः मित्रेण सह नगरं गतवान् गोपालः शिवः सम्भाषणं गोपालः शिवेन सह सम्भाषणं कृतवान्
धन्यवादः
धन्यवादः
रूपा भगिनी अग्रिमं द्वयं करोतु कृपया
आं भगिनि गोविन्दः भवति चर्चा गोविन्दः भवत्या चर्चा
भवत्या सह चर्चा कृतवान्
गोविन्दः भवत्या सह चर्चा कृतवान् अग्रिमं माता पुत्री बन्धुगृहं माता माता पुत्र्या सह बन्धुगृहं गच्छति
गतवती because the example is gatavan so we are just okay going
we keep the meter
bhagini charcham krutvan dvitiya vibhakti no charcham
charcham krutvan
okay
so did she say charcha maybe I couldn't hear properly so I thought she would have done it correctly it should be charcham rupa bhagini avagachati va
am bhagini yeah
if you don't understand ask me I'll
okay no I missed it sorry
natarajan mudhe agrimam dvayam karotu
saha bhagini bhagini saha bhagini alaha
properly again is it saha
saha saha bhagini kalaha saha bhagini
करोतु महोदय
भगिनी इस् इन् भगिन्या
सम्यक्
भगिन्या कलहः सः भगिन्या सह
कलः शुड् बि इन् द्वितीया रैट् जस्ट् नौ वि डिस्कस्
भगिन्यायि कलह सः कलहः
महोदय कलहः इस् इन् प्रथमा यु हाव् टु मेक् इट् द्वितीया
कलहः इस् kalahena
why kalahena which vibhakti is kalahena
kalahena is third should not come here
what
kalahena is sita that should not come actually kalaham kalaham कलहं
कृतवान् यु सेड् इट् ऑलरेडी
कृतवान् नेक्स्ट् वन् कः भवान् आगतवान् कः भवान् भवता कः भवता सह आगतवान्
धन्यवादः
थेङ्क् यु
विद्याधर महोदय अग्रिमं द्वयं करोतु
राजा सैनिकाः युद्धं राजा सैनिकैः सह युद्धार्थं गतवान् Gita Sakya Prahartham. Gita Sakya Saha.
No. Sakya is in Bahut.
Pravaham Gatavati.
Your voice was breaking. I will read it out again. Gita Shakhi
Bihi Saha
Pravaham
Gatavati.
अहं वा भगिनि
आं भगिनि भवती एव
वैद्यः अस्वस्थाः सम्भाषणम् वैद्यः अस्वस्थाभिः सह सम्भाषणं कृतवान्
अस्वस्थाः इति अस्ति खलु
काः आं भगिनि
पुनः एकवारं भवति
सम्यक् न श्रूयते वा भगिनि
पुनः एकवारं करोतु अस्वस्थाः इति अस्ति
आं भगिनि वैद्यः अस्वस्थाः सम्भाषणम् इति अस्ति वैद्यः अस्वस्थाभिः सह सम्भाषणं कृतवान् अग्रिमम् अस्ति काः भवत्यः आगच्छन्ति काः भवती शब्द
भवतीभिः
भवतीभिः सह आगतवन्तः
महोदय तत्र अस्वस्थैः आगच्छति अस्वस्थः पुल्लिङ्ग् वर्ड् अस्ति
ओके
That's why I asked you again, but then I got carried away. However, Aswasthai. Dhanyavadaha Sandeep Mahodaya. Chandra Bhagini, Kaha Bhavatyaha Agachanti Madhye. Bhavati Bhi Saha Agachanti Eva. Agachanti Samiti Namit. It is not necessarily past tense. Since it was passed into the first example, I just wanted to continue with that. That if they have specifically mentioned, we can very well take it.
Bhavati Bihi, is it?
Bhavati Bihi. So, this, usually this confusion comes when it comes to Bhavan, Bhavati. It will be really great if any of you take up the task of reciting one Shabda per day. Like at least three Shabdas you should be able to cover in a class. Please try to do that. It will be really helpful, even to me, if I listen to it again and again. So have some discussions and try to do it, because we have a lot of Shabdas. Most of the Shabdas, we don't cover it in this. It is very regular Shabdas like Ikaranta, Akaranta, maybe Ikaranta, Ukaranta. Only that much is given, but there are much more to cover. So you can make use of the fullest only if you go to the Shabda Manjari and do it every day. Otherwise, it is only like 50% or 60% of... It's very natural, right? If you keep listening to one of the Shabdas, that will get into your head so easily. You will have to cover others as well. So I really request all of you to take up one Shabda and recite it in the class.
We will do
at
it. Bhagini, one. अस्वस्थाः इति अस्ति खलु तत् केवलं तत् शब्दं धृत्वा काण्टेक्स्ट् अपि इवन् वित् द काण्टेक्स्ट् ऐ काण्ट् मेक् औट् वेदर् इट् इस्
पुल्लिङ्ग बहुवचनम् और् स्त्रीलिङ्ग बहुवचन शब्द
It is
so
for that
only by practice I can get it, is it?
Definitely, yes. You have to be very thorough with the Shabda Manjari.
Okay.
You have to also read a lot of, so that you will understand the Prayoga as time goes. Even to me, sometimes it is difficult for me to understand. But we are left with no option but to memorize the Shabda Manjari. I also take part. I also recite one shabda in an order. Maybe I can go in the same order as like we did today. First was Vidya Dharmahodaya, next Chandra Bhagini, third was Uma Bhagini, Sandeep Mahodaya, Rameshwari Bhagini, Rupa Bhagini, Nataraj Mahodaya. We'll go in the same order. If you want, I will just send the order so that we can do that. Vidya Dharmahodaya, will you be able to recite in the next class?
आं भगिनि अवश्यं
यु केन् पिक् युवर् चाय्स् अवाय्डिङ्ग् रामशब्द रमाशब्द सम्यक् करोतु चन्द्रा भगिनी केन् यु रिसैट् द शान्तिमन्त्रं सो दट् वि केन् क्लोस् द क्लास् फर् टुडे ऐ एम् सारी ऐ एक्स्टेण्डेड् इट् फर्
चिन्ता मास्तु अहं करोमि ॐ सर्वेषां स्वस्थिर्भवतु सर्वेषां शान्तिर्भवतु सर्वेषां मङ्गलं भवतु सर्वेषां पूर्णं भवतु ॐ शान्ति शान्ति शान्तिः धन्यवादः
धन्यवादः भगिनी
धन्यवादः धन्यवादः